それでは महादेवना सर्वे प्रविष्टाः वा पुनः तत्र विद्या रमेश भगिनी अनुराधा भगिनी कक्षां प्रति आगच्छतः वा न वा गतवर्गस्य अभवत् वा अप्लोड् इदानीमेव अभवत् वा Forty-eight नास्ति वा आडियो अस्ति पीडीएफ नास्ति परन्तु अत्र तु दृश्यते अस्तु यदि एतादृशसमस्या अस्ति चेत् फैल् न प्राप्तं चेत् पूर्वस्मिन् दिने फैल् न प्राप्यते चेत् यदि पूर्वस्मिन् दिने फैल् न प्राप्यते इत्युक्ते अप्लोड् न भवति चेत् कृपया मह्यं सूचयतु एकम् एस् एम् एस् द्वारा अहं कारयिष्यामि यतोहि अहं तु मम करणानन्तरमेव कक्षानन्तरमेव झटिति प्रेषयामि अप्लोड् करणार्थम् अत्र ते किमर्थं विलम्बं कुर्वन्ति इति पश्यामि नो चेत् मया एव कर्तव्यं कृतवान् अस्तु अग्रिमकक्षातः एतादृशसमस्याः न भवन्ति इति वदतु अनुराधा भगिनीं विद्याभगिनीं सूचयतु कृपया कक्षार्थम् आगच्छतु इति यदि संशयः अस्ति चेत् अहं पुनः पाठयामि यदि तेषां कृते संशयः अस्ति चेत् पुनः पाठयामि यतोहि महादेवन् भवती शारदा अनुराधा विद्या पञ्च इति अहं स्वीकृतवान् पञ्चशिष्याः अवश्यम् आगच्छन्ति तदर्थं पाठः करणीयः इति अस्तु अग्रे गच्छामः अद्य विलम्बः जातः येनाक्षरसमाम्नायमधिगम्य महेश्वरात्मस्थं व्याकरणं प्रोक्तं तस्मै पाणिनेर्महानत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीं गुरुदेव गतिः गुरुमेव गते गुरुमेव साक्षिनमो गुरवे न गुरोः सर्वं शिशुरस्ति गुरो मसुरस्ति गुरो मम पाहि गुरो नमः पाणिनिकात्रयमो गुरुभ्यः तत्र विश्वपाशब्दविषये वयं स्मः विश्वपा इत्यत्र विश्वं पाति इति विश्वपा इति रक्षणार्थकपादातोः रूपं तत्र विश्वपाः विश्वपौ विश्वपः इति प्रथमावक्तेः रूपं विश्वपौ इत्यत्र प्रथमेव पूर्वसवर्णः इति पूर्वसवर्णदीर्घे प्राप्ते దీర్ఘాదశి చాలి నిషేధ భవతి అతః వృద్ధి ఏవ ప్రాప్యతే విశ్వపౌ ఇతి భవతి బహువచనే విశ్వపాహ ఇత్యేవ భవతి తత్ర అకర్తవర్ణే దీర్ఘ ఇది దీర్ఘ భవిష్యతి దీర్ఘాదశి చాలి నిషేధ అది అస్తి అతః ప్రథమపూర్వసవర్ణ తత్రాపి న ప్రవర్తతే ఏవం హే విశ్వపా హే విశ్వపౌ హే విశ్వపాహ అమ్ ఇత్యత్ర అమిపూర్వ విశ్వపౌ ద్వితీయవక్తి బహువచన వివక్షాయాం అస్మాభిః తత్ర తత్రైవ అస్మాభిః చర్చా క్రియతే తత్ర సంజ్ఞాత్రయం అధీతం అస్మాభిః సురనపుంసకస్య సూటితి ప్రత్యాహారః సూయోజ అమ్ ఔట్ ఇతి ప్రత్యాహారః తత్ర స్వాది పంచవచనాని సరనామస్థాన సంజ్ఞాని స్యుః ఇతి సూత్రార్థః పుల్లింగే స్త్రీలింగే చ ఏతే సంజ్ఞాః భవంతి ఏషా సంజ్ఞా భవతి అగ్రిమసంజ్ఞా స్వాదిషు అసర్వనామస్థానే ఇతి పదసంజ్ఞా అనేన విధీయతే అనేన సూత్రేణ తప్రత్యావధిషు స్వాదిషు అసర్వనామస్థానషు పరతః పూర్వం ఇత్యుక్తే ప్రకృతిః పదసంజ్ఞం స్యాత్. సుడరపుంసకస్య ఇత్యర్థ సుట్ ఇది ప్రత్యయానాం సంజ్ఞా పదసంజ్ఞా తు ప్రకృతేః తప్రత్యావధిషు స్వాదిషు ఇత్యత్ర చతుర్థాధ్యాయస్య అష్టాధ్యాయీ విషయకం సర్వం ఉక్తం. యతి భమ్ ఇతి భసంజ్ఞా అస్తి విధీయతే అత్రాపి యకారాదిషు అజాదిషు తప్రత్యావధిషు స్వాదిషు అసర్వనామస్థానేషు పరతః భసంజ్ఞం స్యాత్. ఏవం అస్మాభిః ఆకడారాదేకాసంజ్ఞా ఇది కుత్రచిత్ సంజ్ఞాద్వయం భవిష్యతి యది ఆకడారాదేకాసంజ్ఞాకి అధికార సూత్రం తస్మిన్ అధికారే ఇది భవిష్యతి తర్హి ఏకా ఏవ సంజ్ఞా భవిష్యతి ఇది అస్మాభిః అధీతం. తత్ర విశ్వపా షట్ ఇత్యత్ర భసంజ్ఞా ఏవ న పదసంజ్ఞా ఇది జ్ఞాతం. హా ఇదానీం అగ్రే గమ్యతే తత్ర భసంజ్ఞా అగ్రిమసూత్రం భస్య ఇది భస్య భస్య ఇది అధికార సూత్రం తత్తు నాస్తి లఘుకౌముద్యాం పరంతు స్వీక్రియతే భస్య అధికృత్య షట్టాధ్యాయస్య చతుర్థ పారస్య సూత్రం. అధికారః కుత్ర పర్యంతం అస్తి షట్టాధ్యాయస్య చతుర్థ పాదస్య పంచసప్తత్యధిక ఏకశత సూత్రతమ పర్యంతం అధికారః ప్రవర్తతే. ఇదానీం ఆతో దాతోః ఏతదేవ ప్రముఖ సూత్రం. పదద్వయం విద్యతే ఆతః ధాతోః. ఇదానీం ఆతో దాతోః ఇతి షట్టాధ్యాయస్య చతుర్థ పాదస్య సూత్రం. హా ఆకారాంతః యః ధాతుః తదంతస్య భస్య అంగస్య లోపః భవతి. తదంతస్య భస్య అంగస్య లోపః భవతి. ఇదానీం భస్య అంగస్య ఇత్యుక్తే భసంజ్ఞాయుక్తస్య అంగస్య. భసంజ్ఞాయుక్తః కదా భవతి? భసంజ్ఞా కదా భవతి? భసంజ్ఞా కదా భవతి? హలాదిపరేవ అజాదిషు యాదిషు పరే భసంజ్ఞా భవతి. ఇదానీం ఇదానీం అస్మాకం షట్ ఇతి ప్రత్యయః షట్ ఇత్యత్ర షకారః ఇత్సంజ్ఞకః ఏవం అస్తితి భవతి. ఏవం అజాది ప్రత్యయః అస్తి. అతః పూర్వస్థిత విశ్వపా శబ్దస్య భసంజ్ఞ విశ్వపా అస్ విశ్వపా ఇత్యత్ర భసంజ్ఞ. ఇదానీం ఆతో ధాతోః ఇతి సూత్రస్య ప్రవృత్తిః. ఆతో ధాతోః ఇతి సూత్రం ఆకారాంతః యః ధాతుః తదంతస్య భస్య అంగస్య లోపః స్యాత్. ఇదానీం విశ్వపా ఇత్యత్ర పా ఇతి అస్తి. ఆకారాంత ధాతుః పాతి ఇతి పా ఇతి అస్తి. పా ఇతి ఆకారాంత ధాతుః अस्ति। आकारान्तो यो धातुः तदन्तस्य तदन्तस्य इत्यत्र आकारान्तो यो धातुः इत्युक्ते का इति धातुः तदन्तभसंज्ञक अङ्गस्य तदन्तस्य भसंज्ञस्य अङ्गस्य इत्युक्ते विश्वपा इत्यस्य लोपः भवति। विश्वपा इत्यस्य सम्पूर्णलोपः भवति वा इति प्रश्नः। तदा उच्यते अलोङ्क्यस्य इति परिभाषया केवलम् अन्तिम आकारस्य लोपः अन्त्यस्य आकारस्य लोपः एवं विश्वप् अच् इति भवति। विश्वप् अच् इत्यत्र इदानीं तत्र वर्णानां योगे कृते विश्वपः विश्वपत् विश्वपर् विश्वपः इति भवति। द्वितीया बहुवचने विश्वपः इति रूपम्। अनन्तरं तृतीया विश्वपा टा किं भवति? टा इत्यत्र इत्यस्य तत्र चुतु इत्यनेन इत्संज्ञा विधीयते। विश्वपा आ इति भवति। एवं यचिभम् इति बसंज्ञा अस्ति तस्य विश्वपा इत्यस्य अजादिप्रत्ययः अस्ति अतः बसंज्ञा पूर्वस्य बसंज्ञा पूर्वस्य बसंज्ञा नाम विश्वप् विश्वपा इत्यस्य बसंज्ञा। एवं बसंज्ञा प्राप्ते बसंज्ञायां किं भवति? आदौ धातोः इति आकारस्य लोपः विश्वप् आ इति भवति विश्वपा इति तृतीया अस्ति एकवचनरूपम्। विश्वपाभ्यां विश्वपाभ्याम् इत्यत्र हलादिप्रत्ययेषु कार्यमेव नास्ति। विश्वपाभ्यां केवलं पदयोगः किमपि कार्यं नास्ति। विश्वपाभ्यां विश्वपाभ्यां विश्वपाभिः विश्वभिस् भिस् भिर् भिः विश्वपाभिः एवं विश्वपे यत्र यत्र हलादिः तत्र तत्र किमपि कार्यं नास्ति। यत्र यत्र अजादिः तत्र आतो जातोः इत्यत्र इत्यस्मात् लोपः। अवगतं वा? विश्वपे चतुर्थीभक्ति विश्वपे इति अस्ति तदपि अवगतं। विश्वपाभ्यां विश्वपाभ्यः तत्सर्वम् अवगतं। विश्वपः कथमागतं? नस्तिति अस्ति। नस्ति इत्यत्र अजादिप्रत्ययः अस्ति अस्तिः अस्ति अजादिप्रत्यय यदि अजादिप्रत्ययः अस्ति तर्हि विश्वपा अस् इति भवति। आतो धातोः इत्यनेन लोपः। विश्वपः विश्वपाभ्यां विश्वपाभ्यः विश्वपः विश्वपोः ओस् इति अजादिप्रत्ययः अतः विश्वपोः विश्वपां विश्वपाम् इत्यत्र विश्व विश्वपा आम् अत्र नुडागमः नास्ति। हा यत्र नुडाग बसंज्ञा तर्हि आम् विश्वपां विश्वपि विश्वपोः विश्वपासु विश्वपि इत्यत्र इकारः इकारः अजादिप्रत्ययः अतः भसंज्ञा अस्ति विश्वपि। हा विश्वपोः विश्वपासु विश्वपासु इत्यत्र पदयोगः सुप्पुल्पुरु विश्वपासु एवमेव रूपाणि प्रक्रिया च। अग्रिमशब्दः आकारान्तपुल्लिङ्गः हाहा शब्दः तत्र एवं शङ्कर्मादयः इति दत्तं। शङ्कर्मा इत्युक्ते शङ्कं शङ्कं धमति शङ्कं धमति इति शङ्कर्मः धमति इत्युक्ते शङ्कं वादयति इत्यर्थः। संतद्वा विश्वपाशद सरसोभ येमेव सोमपा मधुपा कीलालपा इत्यादि शब्दाः भवन्ति। अत्र प्रश्नः धातोः किम्, अत्र धातोः किम्, धातोः किम् इति अत्र अस्ति दलकृते हा हान् इति दत्तं तत्र हा हान् हा है हा 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 ओके। अत्र किम् अस्ति इत्युक्ते किमर्थं धातोः इति उच्यते, इदानीं हा हा इति अभ्युत्पन्नप्रातिपदिकः, तत्र प्रातिपदिकानां मध्ये मया उक्तं व्युत्पन्नप्रातिपदिकाः धातुजप्रातिपदिकाः, व्युत्पन्नप्रातिपदिकाः इत्युक्ते धातुजं सर्वं धातुजम् इति शाकटायनः। अव्युत्पन्नप्रातिपदिकाः केचन सन्ति, तत्र डित्तडपित्तादयः एवं पीटर् जान् इत्यादि अव्युत्पन्नप्रातिपदिकाः, एवमेव हा हा इति गन्धर्वः कश्चन अस्ति, हा हा हू हू जैवमाद्य गन्धर्वा सुयोगताम् इति गन्धर्वः अस्ति। एवम् अत्र हा हा इति शब्दस्य हा हान् इत्यत्र यदि हा हा अत्र यदि आतो धातोः इति सूत्रे यदि धातुः इति न उच्यते तर्हि हा हान् इत्यत्र किं भवति, हा हा षट् इति भवति, आकारस्य लोपः भवति स्म। हा या वृत्त्या बहुवचनमपि एवमेव भवति स्म, अत एव अत्र हा हा शब्दः धातुनिष्पन्नः नास्ति, अव्युत्पन्नप्रातिपदिकम् अस्ति, अतः हा हान् इत्येव भवति न तु हा हा इति। अतः आतो धातोः इत्यत्र धातुः इति पद तत्र उपस्थापनेन अत्र हा हा शब्दस्य लोपः न भवति, हा हा शब्दस्य आकारस्य लोपः न भवति, आकारस्य लोपः न भवति इति तात्पर्यम्। एवमेव रूपाणि पश्यामः, हा हान् इति किं हा हा तत्र सर्वं ज्ञायते, हा हाभ्यां यत्र यत्र अत्र हलादिः अस्ति तत्र सर्वं केवलं पदयोगः, हा हाभ्यां हा हाभिः इत्यत्र, यत्र अजादिप्रत्ययाः सन्ति तत्र वसंज्ञा अस्ति, परन्तु आतो धातोः इत्यस्य न प्रवृत्तिः, हा हा किं भवति तत्र, हा हा इत्यत्र तृतीयाभक्ति एकवचनरूपं, हा हा ट हा हा आ हा हा प्लस् आसवर्णदीर्घ स्वर्णदीर्घ, एवं हा है चतुर्थीभक्ति एकवचनं, वृद्धिरेति हा है, एवमेव हा 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 है। अनन्तरं ओसि किं भवति, ओसि हा हा ओस् हा हा ओस् हा हा हौस् आवो आवो वृद्धिरचि हा हा इत्यत्र कथं भवति, हा हा आम् ज्ञायते किल, हा हा हे
आहुः हवतु. सप्तमी एकवचने एवतिङ्नाक आगुणः. एवं प्रक्रिया हा हा शब्दस्य. इदानीम् अग्रिमशब्दः इकारान्तपुल्लिङ्गः हरिशब्दः. हरिशब्दस्य हर्त इकारान्तः सः. हरिशब्दस्य अर्थः कोऽपि जानाति वा? प्रसिद्धहरि दत्तर्थकः शब्दः. विष्णुः इति सिंहः, वानरः, हरि इत्युक्ते सर्पः इत्यपि अस्ति, हरि इत्युक्ते इन्द्रः इत्यस्ति, हरि इत्युक्ते हरि इत्युक्ते भेकः, भेकः इत्युक्ते फ्राग्, हरि इत्युक्ते सिंहः तु उक्तं, हरि इत्युक्ते अश्वः इत्यपि अस्ति, हरि इत्युक्ते सूर्यः इत्यपि अस्ति, हरि इत्युक्ते चन्द्रः इति अस्ति, हरि इत्युक्ते फाक्स् इत्यपि अस्ति, हरि इत्युक्ते यमराजः इत्यपि अस्ति, हरि इत्युक्ते वायुः इति अस्ति. एवं द्वादश अर्थाः सन्ति. तत्र एकः श्लोकः अस्ति, अहं वस्तुतः अत्र टैप् कर्तुं विस्मृतवान्. हरिर्विष्णावहाविन्द्रे भेके सिंहे हये रवौ चन्द्रे 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 काले चन्द्रे काले वा अमरकोशो अस्ति वा? चन्द्रे काले प्लवङ्गे च यमे वा ते च कीर्तितः. एकनिमिषं पश्यामि अमरकोशे अस्ति वा इति. अमरकोशमानेष अमरकोशे नानार्थवर्गः इति अस्ति. तत्र प्रायः श्रुतं मया कश्चित् हरिर्विष्णावहाविन्द्रे विष्णौ अह अह इत्युक्ते अहिः सर्पः. विष्णावहाविन्द्रे भेके सिंहे हये रवौ चन्द्रे ज्ञानार्थवर्गः. दीर्घः अस्ति नानार्थवर्गः, सङ्कीर्णवर्गः. अमरकोशस्य सर्चबल् इण्डेक्स् आपद् अपेक्षितम्. सोरि, अमरकोशे न दृश्यते. कुतश्चित् लब्धं वा? आडियो नास्ति वा? हरि ओम।
पुस्तक नास्ति, पुस्तक ऐसी नया अन्वेषण इंडेक्स नास्ति,
अस्तु पश्यामः। परन्तु हरि इत्यस्य एतावन्तः अर्थाः सन्ति इति अस्तु। इकारान्त पुल्लिङ्गः हरिशब्दः, अत्र प्रथमाभक्ति हरि इत्यस्य द्वादश अर्थाः प्रसिद्धाः इति श्लोकमेकमस्ति। अस्तु, तत् श्लोकम् अहमपि किञ्चित् स्मृत्वा लिखामि, अत्र नोट्स् मध्ये लिखित्वा प्रेषितम्। एवं प्रथमाभक्ति एकवचने हरिषु इति अस्ति। हरिषु इदानीं भवन्तः भवत्याः एव वक्तुं शक्यते प्रक्रिया, कृपया वदन्तु। महादेवन् महोदय, अद्य भवतः ध्वनिं न श्रुतवान् अहम्। महादेवन् महोदय अस्ति वा? महोदय, अस्तु, लागिन् कृतवान्। கேட்கல அவர் பேசுவது, ஓயோம்மா ஓ நூ கேட்க அவர் தேர்ந்த மியூட் பண்ணியிருக்காரா பாருங்க, அந்த சிஸ்டம் மியூட் பண்ணியிருக்காரா? महोदय, सिस्टम म्यूट कृतवान् वा भवान्? अटेंडी सेल्फ म्यूटेड में काम कर रहे हैं क्या? அவரே மூட் பண்ணிருந்தார். இப்ப கேக்குறது மகாதேவன் மோதியா? இன்னொரு தரம் பண்ணணும், இன்னொரு தரம் அன்மியூட் பண்ணணும். இதானி வளர்த்து 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 ஹரி பிரதமாவத் ஹரி பிரதமாவத்தி ஏகவச்சனம் சுயத்தை சுயத்தை
ऋत्वविसर्गः
अस्तु। अनन्तरं द्वितीय द्विवचनम्
अति समीचीनम् बहुवचनम् हरि हरि इति भवति प्रथमेव पूर्वतमः अनन्तरं बहुवचनम् लशक्वतरिते वा जकारस्य लशक्वतरिते षट्सित्यत्र भवति अस्तु अस्तु हरि अस्ति इत्यत्र गुणसन्धि वा तर्हि इको एनचि भवति चेत् किं भवति इकारस्य स्थाने यकारः भवति चेत् तर्हि इष्टसिद्धिः न भवति पूरसवर्णदीर्घः प्राप्यते एवं तर्हि किं कर्तव्यं नूतनसूत्रमस्ति जति च इति जति च इति सूत्रं पदद्वयम् अङ्गस्य इति अङ्गाधिकारे विद्यते ह्रस्वस्य गुणः इति अनुवर्तते ह्रस्वस्य गुणः इति सूत्र ह्रस्वस्य गुणः इति एकं सूत्रमस्ति अनुवर्तते जसिता इति सूत्रं किं वदति ह्रस्वान्तस्य अङ्गस्य गुणः स्यात् जसि परे ह्रस्वान्तस्य अङ्गस्य इदानीं प्रथमयोः पूर्वसवर्णः आदौ प्राप्यते पूर्वसवर्णदीर्घः प्राप्यते परन्तु जटिता इति प्रथमपूर्वसवर्णः इति सूत्रसङ्ख्या तस्य सूत्रसङ्ख्या किम् अस्ति प्रथमयोः पूर्वसवर्णः 102 अस्ति जटिता इति परसूत्रम् एवं परसूत्रमेव किल परसमनं सति परसूत्रमेव अतः सत्त्वान्तस्य अङ्गस्य गुणस्यात् जसि परे एवं गुणः भवति तर्हि हरि अस्ति चेत्र गुणः इत्युक्ते कुत्र भवितव्यम् अङ्गस्य गुणः अङ्गः नाम अङ्गस्य गुणः नाम गुणः नाम आद्गुणः
अदेङ्गुणः गुणवर्णः एकारः अस्ति अकारः अस्ति ओकारः अस्ति. गुणः कदा भवति? यदा इकारः अस्ति चेत् गुणः भवति, उकारः अस्ति चेत् ओकारः भवति. इदानीं हरि इत्यस्य इकारः अस्ति, एवम् अलोन्त्यस्य इति अन्त्यस्य गुणः, अङ्गस्य अन्त्यस्य गुणः. एवं हरि जति अस्ति इत्यत्र हरे अस्ति भवति अग्रिमस्टेप्. हरे हरि अस् जत् हरि अस् हरे अस् केन सूत्रेण? जति च. तदनन्तरम् इदानीम् अस्माभिः तदेव मया उच्यते अन्त्यस्य इकारस्य गुणः इति अस्माभिः. इदानीं हरि इत्यस्य हकारोत्तर अकारः अपि अस्ति, अस्माभिः अकारस्यापि गुणः कर्तुं शक्यते. अतः तदा उच्यते स्थाने अन्तरतमः. अस्माभिः किं क्रियते? अन्त्यस्य इकार अन्त्य अलोन्त्यस्य इति अन्त्यस्य इकारस्य स्वीक्रियते, तत्रापि प्रमाणतः आन्तर्यं स्वीक्रियते. आन्तर्यं चतुर्विधं तदेकवारम् अस्माभिः दृष्टं. यत्र आन्तर्यं बहुविध आन्तर्यम् अस्ति इत्युक्ते अत्र अकारः अपि गुणवर्णरूपेण प्राप्तुमर्हति, एकारः अपि प्राप्नोति अकार. तदा अस्माभिः उच्यते यत्र अनेकविधमान्तर्यं तत्र स्थानतः आन्तर्यं बलीयः. एवं स्थान आन्तर्यं स्वीकृत्य अत्र इकारस्य एकारः क्रियते. एवं हरे अस्ति इति भवति. तदनन्तरं तु सर्वे जानन्ति एकारः अकारः अस्ति, अतः यचोयवायावः इति अयादेशः. तदनन्तरं हरयस् इति भवति, हरयर् हरयः ऋत्ववसर्गौ करवतानयो विसर्जनीयः, ततः पूर्वं रसविशोरुः. एवं हरिशब्दस्य प्रथमाविभक्ति बहुवचनस्य रूपं, रूपं प्रक्रिया च. ज्ञातं वा? अग्रिमरूपं हे हरि सम्बोधनप्रथमावृत्ति. हे हरे इति अस्ति, हे हरिस् इति अस्ति. अस्माभिः सम्बोधनप्रथमावृत्ते रामशब्दस्यापि एकमेव सूत्रम् अधीतम्, येन ह्रस्वात् सम्बुद्धेः. अत्र सम्बुद्धेः ह्रस्वान्तः अस्ति वा एनन्तः अस्ति वा किम् अस्ति? अत्र ह्रस्वान्तः अस्ति. अतः अत्र हे हरे न प्रथमं सम्बुद्ध एन् ह्रस्वात् सम्बुद्धेः इति सूत्रस्य अर्थः सूत्रार्थः हल् हल् लुप्यते. हे हरि सकारस्य लोपः, सम्बुद्धिलोपे प्राप्ते ह्रस्वस्य गुणः इति सूत्रमस्ति. ह्रस्वस्य गुणः इति किं सूत्रं किं वदति? सम्बुद्धौ ह्रस्वस्य गुणः भवति. सम्बुद्धौ नाम एकवचनं सम्बुद्धिः, सम्बुद्धौ नाम सम्बोधनप्रथमावृत्तेः काचन संज्ञा सम्बुद्धि, एकवचनं सम्बुद्धिः इति संज्ञा अस्ति. इदानीमत्र ह्रस्वस्य गुणः इति सूत्रं किं वदति? सप्तमाध्यायस्य तृतीयपादस्य सूत्रं. सप्तमाध्यायस्य सूत्रं किं वदति? सम्बुद्धौ. अत्र सम्बुद्धौ नाम किं? सम्बुद्धौ ह्रस्वस्य गुणः भवति. एवं हे हरि इत्यत्र ह्रस्वस्य गुणः इति नूतनसूत्रम् आगत्य कार्यं करोति. हे हरे इति भवति. इदानीं येन ह्रस्वात् सम्बुद्धेः इति सूत्रस्य प्रवृत्तिः इदानीं भवति. हे हरे इति। अत्र भवति इदानीं प्रश्नः कर्तुम् अर्हन्ति भवन्तः। पूर्वमेव यदि क्रियते एङ्गरत्वात् सम्बुद्धेः ह्रस्वस्य गुणः सूत्रं नावश्यकम्। एङ्गरत्वात् सम्बुद्धेः डैरेक्ट्लि वि केन् अप्लै इण्डस्टपुण्डि सम्बुद्धिसंज्ञा तु अस्ति हे सु इत्यत्र, तर्हि तत्रैव कर्तुं शक्यते। अत्र किमर्थम् तत्र हे हरि इति भवति, अतः गुणः अस्माभिः इष्टः, अतः हे हरे इति कृत्वा तदनन्तरम् एवं रत्वात् तदनन्तरम् एवन्तात् लोपः न तु रत्वान्तात् लोपः। एवं रत्वात् समुद्रेः इति सूत्रार्थः एङन्तात् ह्रस्वान्तात् सल्लुप्यते सम्बुद्धेः चेत् इति अस्ति। इदानीं हे हरेस् इति यदा भवति तदा एङन्तः अस्ति अङ्गम्, एङन्तात् सकारलोपः न तु ह्रस्वान्तात् लोपः। एवं हे हरे इति अभवत्, एवं हे हरि इत्यत्रापि समानरूपं समानप्रक्रिया इत्युक्ते प्रथमावृत्ति विवचने यथा अस्ति तथैव, हे हरयः इत्यत्रापि तथैव भवति। इदानीं द्वितीयावृत्ति रूपं हरि अम् महादेव महोदय द्वितीयावृत्ति एकवचनम् हरि अम् अमि पूर्वः हरिम् हरिमिति भवति। तत्रैव पूर्वसवर्णः हे हरि इत्यत्र हरिं हरि इत्यत्र हरि। इदानीं बहुवचनं द्वितीयावर्ति बहुवचनम् षट् इति प्रत्ययः हरि षट् हरि अच् किं तत् सूत्रम्? अस्तु अस्तु दृष्ट्वा वदतु। तस्मात् शतो न पुंसि, तस्मात् शतो न पुंसि किं किमुच्यते तत् सूत्रं? सूत्रार्थः कः? शतः नः स्यात् पुल्लिङ्गे। एवं किं भवति? अस्तु पूरकर्ण दीर्घः हरिमिति तस्मात् सोनः पुंसि सकारस्य नत् इदानीं मम प्रश्नः हरिणित्यत्र नकारः भवति वा रेफात्परम् अट्टवर्णः ईकारः अस्ति नकारस्य नकारः भवेत् किल हरिम् इति भवति भवेत् किल सूत्रं किम् तर्हि सूत्रं किं तस्य न न पदान्तस्य इति सूत्रम् सूत्रं तु पदान्तस्य इति अस्ति नस्य नो नो न नो न इति अस्ति एवम् अत्र न भवति अस्तु अतिसमीचीनम् एतत् नदीसंज्ञा शेषोद्यसखी वा अस्तु एतत् अग्रिमकक्षायां कुर्मः शेषोद्यसखी हरिशब्दस्य समाप्तिः भवति चेत् हरिगुरु समानमस्ति अहं गुरु अपि तदनन्तरं कारयितुं शक्यते अनन्तरं किम् अस्ति ओ सखीशब्दः अस्ति तत्तु विशेषः बहु अस्ति सतीशब्दः अस्ति अनन्तरं लुमताङ्गस्य त्रिशब्दः त्रिशब्दः अस्ति अस्ति बहु अस्ति अजन्तपुल्लिङ्गप्रकरणे एव बहु अस्ति अस्तु शुक्रवासरे अहं शृङ्गेरी मध्ये भवामि अतः प्रायः कक्षा नास्ति तत् तस्मिन् दिने बस् यानं कदा अस्ति दशवादने अस्ति शुक्रवासरे कक्षा न भवति अग्रिम ट्यूस्डे अहं सेट् करोमि पुनः वेबिनार् सेट् करोमि कण्टिन्यूस् सिक्स् मन्त्स् वा त्री मन्त्स् सेट् करोमि अतः पुनः पुनः रिजिस्ट्रेशन् न आवश्यकं कृपया अनुराधा भगिनी विद्या भगिनीं सूचयतु ततः पूर्वम् अहं श्वः एव एतत् सर्वम् अप्लोड् करोमि अद्य प्रभृति यद्यद् अभवत् 48 फैल् अपि समीकरोमि कृपया ते अपि सूचनीये सुलभमस्ति सो अत्र सुलभमस्ति हरिशब्दः गुरुशब्दः एतत् सर्वं बहु सुलभमस्ति तत्र विशेष किमपि कार्यं सूत्रम् एतदेव ज्ञात्वा गन्तव्यं किमपि विशेष व्याकरण टेक्निकल् मेटर् किमपि नास्ति अग्रे किञ्चित् वेगेन गम्यते इदानीं तत्र प्रायः क्रोष्टु शब्दस्य विषये किञ्चित् अस्ति अस्तु परन्तु किञ्चित् गम्यते फास्ट् इदानीं रामशब्दः समाप्तिः सर्वनामशब्दानां समाप्तिः अभवत् चेत् अजन्तपुल्लिङ्गप्रकरणं किञ्चित् इदानीं वेगेन गम्यते अहमपि किञ्चित् वेगेन करोमि इदानीं पञ्चजनाः भवन्तः यदि सम्यक् पठन्ति चेत् अस्माभिः शीघ्रं कर्तुं शक्यते ट्यूस्डे तर्से स्त्रीलिङ्गः अस्ति नपुंसकलिङ्गः अस्ति कदा आरब्धम् अस्माकं कक्षा इति ज्ञायते वा यदि स्मरणविस्मरण ओ तदा एव आरब्धं वा तत्र गुरोः अनुग्रहेणैव एकवर्षं अस्तु किञ्चित् निधानतया गच्छति
though it is going slow, I think you are learning. So, kripaya tadvi. It is going slow iti ma chintayantu. Aham tu yava chakti kaumudiska vishayanapi atreva patiyannasmi. Madhya madhya yojayitva. Ataha siddhanta kaumudi pasana samaye tada bahu vegena gatam chakyate iti. Aham yava chakti tadvishayanapi atreva yojayitva. Yava chakti patiyannasmi. परंतु सूत्राणि न्यूनानि सन्ति अतः दो इट टेक्स टू इयर्स इट इज वर्थ इट तत्र मम एव क्लेशः यद्यपि छात्राणां तु आसक्तिः बहु अस्ति मम एव क्लेशाः सन्ति गृहकार्याणि सन्ति एतत् सर्वम् अस्ति ममैव क्लेशः अस्ति तथापि अहं it is going well as long as you are learning. If people are learning, I am very happy. Because Vidya and Anuradha were studying very well. They were understanding very well. I wanted them also to come to the class. So, if they have some problems, Mahadevan sir, if you can go to Vidya Bhagini's house and see what is her problem and if you can rectify her, help her, if she is in Chennai and you are also in Chennai, is it possible sir, one day, one weekend? அதான் ஒரு நாளைக்கு அவாச்சுக்கு போயிட்டு நீங்க அத என்ன ப்ராப்ளம்னு தெரிஞ்சிருந்தா வித்யா பகினி கொஞ்சம் ஹெல்ப் பண்ணீங்கன்னா அவ சிவிலாக்கு அட்டெண்ட் ப்ராப்ளி ஹியர் மியூட்டட் ஸோ அஸ்து பவதி சூச்சயத்தோ பகினி நீங்க அஞ்சு பேர் இந்த புக்கை முடிச்சுட்டேனாக்க நீங்க அஞ்சு பேர் சென்னையில பிரத்யட்ச பாடம் ஆரம்பிக்கலாம் அஞ்சு இடத்துல ஆரம்பிச்சா நீங்க அஞ்சு பேர் சொல்லி கொடுத்தா அஞ்சு வந்து 25 பேர் தயார் பண்ணிடலாம் இந்த 4 வருஷத்துல ஜாக்கிரதம் தெரிஞ்சவாள் அஸ்மாக்கம் உத்தேசத்து தரேன் யா பரா அனவகாசாச்ச ஓகே அது எக்ஸாம்பிள் எடுத்து அடுத்த கிளாஸ் சொல்லட்டுமா I will explain once more, sir. No problem. Definitely, I will explain. No problem. Thank you. Shubhadri. Shukradri Kakshanathi. Agrima Mangalavatare Kaksha. Tuesday.